नमः सर्वेभ्यः। अद्य परमलघुमञ्जूषायाम् एकादशः पाठः, मार्च् मासस्य एकत्रिंशः दिनाङ्कः। अद्य व्यञ्जनावृत्तेः निरूपणं ग्रन्थानुगुणं पश्यामः। आदौ मङ्गलम्। येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। शिवन्नत्वा हि नागेशेनानिन्द्या परमालघुः वैयाकरणसिद्धान्तमञ्जूष इषा विरच्यते। वृत्तिः त्रिधा भवति, शक्तिः लक्षणा व्यञ्जना चेति दृष्टम्। तत्र वृत्तिः नाम पदपदार्थयोः सम्बन्धः। पदस्य यः प्रधानः अर्थः तस्य विषये शक्तिः एव वृत्तिः इत्युच्यते। वाच्यवाचकभावापरपर्याय पदपदार्थयोः सम्बन्धः शक्तिः इति। सो शक्ति रेप्रसेण्ट्स् द actual meaning that a word conveys directly. The direct meaning which is expressed by a word is conveyed through shakti. Tadrishah arthah shakyah ityuchyate, padancha shaktam ityuchyate. Kintu kadachit padasya yah prasiddhah arthah saha na sangachyate. Prayoge yada drishyate, एकं पदं प्रयुज्यते किन्तु तस्य प्रसिद्धः अर्थः न उपपद्यते। अनुपपत्तिः, अन्वय अनुपपत्तिः अथवा तात्पर्य अनुपपत्तिः, यद्विवक्ष्यते तत् तात्पर्यं तेन न बोध्यते। एवम् अनुपपत्तौ सत्याम् अस्माभिः अपरः अर्थः आश्रियते, सः अर्थः लक्ष्यार्थः इत्युच्यते। स च शक्यार्थेन सम्बद्धः अर्थः एव भवति। स्वशक्यसम्बन्धः लक्षणा इति लक्षणावृत्तेः स्वरूपम्। शक्यार्थेन सह सम्बन्धः लक्षणा इत्युच्यते। तादृशसम्बन्धद्वारा यः अर्थः प्रतीयते सः लक्ष्यार्थः इत्युच्यते। तादृशं पदं लाक्षणिकं, वृत्तिश्च लक्षणा इत्युच्यते। मुख्यार्थबाधे सत्येव लक्षणायाः प्रवृत्तिः, किञ्च मुख्यार्थेन सम्बद्धस्यैव अर्थस्य भानं भवति लक्षणावृत्त्या। यथा गङ्गायां घोषः इत्युक्ते गङ्गापदस्य शक्यार्थः तीरं, किन्तु क्षम्यतां, गङ्गापदस्य शक्यार्थः प्रवाहः, किन्तु प्रवाहे घोषस्य सत्ता नोपपद्यते इत्यतः प्रवाहसम्बद्धं तीरं लक्ष्यार्थत्वेन स्वीक्रियते। अतः गङ्गापदस्य तीरे लक्षणा इत्युच्यते। तत्र तीरं लक्ष्यार्थः, गङ्गा इति पदं लाक्षणिकम्। इदानीं तृतीया एषा वृत्तिः व्यञ्जना इत्युच्यते। तत्र तार्किकाणां मते लक्षणयैव व्यञ्जना गतार्थ। सो तार्किकास् कवर् लक्षण, कवर् व्यञ्जन अण्डर् लक्षण। So anything which is not direct, the direct meaning which is not shakti will be conveyed by lakshana is what they hold, but we do not agree. Atah eva tatra vyanjana swarupa kathane eva lakshanaya vaishishtyam vailakshanyam spashtam pratipadyate Nagesha Bhattena. Nanu vyanjana kah padarthah uchyate मुख्यार्थबाधनिरपेक्षबोधजनकः। सो द फर्स्ट् थिङ्ग् विच् डिस्टिङ्ग्विशस् व्यञ्जन फ्रम् लक्षण इस् दट् मुख्यार्थबाधः अनपेक्षितः। पदस्य पदानां वा यः शक्यार्थः स तु अन्वेत्येव, तत्र नास्ति सन्देहः। व्यञ्जनावृत्तौ पदस्य शक्यार्थः, शक्यार्थस्य बोधः भवति। तदतीत्यापि अन्यस्य कस्यचिदर्थस्य बोधः भवति, सः अर्थः व्यङ्ग्यार्थः। अत्र शक्यार्थस्य बाधः नास्ति, शक्यार्थोऽपि युज्यते किन्तु न तावता तात्पर्यसिद्धिः। सो द शक्यार्थ फिट्स्, इट् इस् पर्फेक्ट्लि फैन्, बट् द कम्युनिकेशन् डस् नाट् स्टाप् देर्. ओके, सो इट् इस् नाट् जस्ट् दट्, there is something which is to be conveyed beyond the meaning of the word. So, an implication which is called as the vyangyartha, and the vritti is called vyanjana. Mukhyartha badha nirapeksha bodha janakaha. Mukhyartha sambandha asambandha sadharanaha. Eta dvitiyam vailakshanyam lakshanayaha. Lakshana sarvada mukhyartha sambandha eva. Svashakyartha sambandha, svashakya sambandha lakshana ityuchyate. Atratu mukhyarthena saha sambandha kadachit bhavitumarhati, kadachit na bhavatyapi. Ataha sambandha asambandha sadharanaha. Prasiddha aprasiddhartha vishayakaha. Kincha vyanjanaya yaha arthaha bhasate, saha prasiddhaha syat. Prasiddhaha nama sarvaihi bodhum shakyaha. Athava aprasiddhaha nama kaishchideva bodhum shakyaha. As we see, that vyanjana is very subjective. It is based many times on the relation between the shrota and the vakta. Okay, how they know each other and what is the previous samskara between them. Ataha prasiddha prasiddhartha vishayakaha vaktradi vaishishta jnana pratibhadyudbuddhaha. Tatra vyanjanayam kim karanam bhavati vaktradi vaishishtya jnanam kaha vakta. Ekameva vakyam bhinnaihi yadi uchyate tarhi tatra bhinnaha arthaha bhasate. Ataha vaktradi vaishishtya jnanam. Nakevalam vaktuhu, anyesham api asti agre uchyate, tesham vaishishtyasya jnanam, kincha pratibha, shrotuhu pratibha api apekshyate, vyangyarthasya avagamane, vakta kadachitu vadet, kintu tena kim uddishtam, tatsi kim kutra tatparyam iti jnane, shrotuhu pratibha api apekshyate, evancha vaktradi vaishishtya jnana, pratibhadi udbuddhaha, samskara visheshaha, vyanjana. Atayeva nipatanam dyotakatvam sphotasya vyangyatacha haryadibhirukta. Vyanjana vrittihi vayyakaranaihi bahutra angikriyate. Na kevalam samanya vyavahare vyakarana shastre api vyangyarthasya upayogaha bahudha bhavati. Nipatanam dyotakatvam. Nipataha dyotakaha utavachakaha iti mahati charcha pravartate vyakarane. Nipataha nama pragrishwaran nipataha iti sutrena nipatadhikaraha vidhiyate. Tatra bahavaha santi chadayaha asatve pradayaha ityadi rupena bahunam shabdanam nipatasamya vidhiyate. Etesham nipatanam korthaha iti prashnaha yatha upasargaha upasargaha api nipataha. Idanim tesham sviyaha arthaha astiva iti prashnaha yatha pra iti kashchit upasargaha asti. Saha bhinnebhyaha dhatubhyaha pra iti upasargasya sambandhaha bhavitum arhati bhinnaihi dhatubhissaha. Tatha sati tasya kaha arthaha iti prashnaha. Saha kamapi artham swayam bodhayati va iti chet nasti sviyaha arthaha. Tarhi kim karoti nipataha dyotakaha kim nama dyotakatvam astra uchyate nipatanam iti tesham mukhyartha abhavena lakshanaya asambhavat vyanjakata rupa dyotakataiva ityarthaha. So there was somewhere else where he says what is dyotaka athava mule eva asti. Dyotakatvam cha sva samabhivyahrita padanishtha shakti vyanjakatvam. Kim nama dyotakatvam iti chet sva samabhivyahrita padam. Sva samabhivyahritam yath padam. Yatha gam iti dhaturasti tasya anu iti upasargaha yojyate anugachyati iti rupam. Tatra svam nama anu iti nipataha. Sva samabhivyahritam padam nama gam iti dhatuhu. Tasmin dhatau tat pada nishtha shaktihi tasya dhato reva gam iti dhato reva bahavaha arthaha santi. Gacchati ityasya samanyaha yaha arthaha. Anugacchati ityasya yaha arthaha. To go, to follow, to come back. Agacchati ityukte to come back. Evam yaha bhinnaha arthaha asti sa sarvopi arthaha dhato reva iti siddhantaha. Dhato dhatavaha bahvartha vachakaha. So all the meanings which we understand with the help of upasargas are actually the meanings of the dhatu. Dhatoreva teshu sarveshu artheshu shaktihi. Kintu upasargasya yojanena sa shaktihi vyajyate. Sva samabhivyahrita padanishtha shakti vyanjakatvam. Tam shaktim vyanjayanti upasargaha. Ataha upasarganam sviyaha arthaha nasti. Dyotakatvam. Dyotakatvam nama sva samabhivyahritaha yaha dhatuho. Tasya artha visheshaṁ bodhayanti ete upasargaha. Ataha atrapi vyanjana vrittihi angi kriyate. So they do not, they convey something more than what is the actual meaning or the prasiddha artha of the dhatu. So that is through the vyanjana. Ataeva nipatanam dyotakatvam sphotasya vyangyatacha. Sphota visheyapi agre pashyamaha. स्फोटः कथम् अर्थम् अभिदधति अभिदधाति इत्यत्र व्यञ्जनावृत्तिः एव अंगीक्रियते न तु शक्तिः साक्षात् अतः अत एव निपातानां द्योतकत्वं स्फोटस्य व्यंग्यता च हर्यादिभिः हरिः इत्यनेन भर्तृहरिः वाक्यपदीयकारः तदादिभिः उक्ता द्योतकत्वं च स्वसमभिव्याहृत पदनिष्ठ शक्तिव्यञ्जकत्वं इति वैयाकरणानामपि एतत् स्वीकारः आवश्यकः अतः वैयाकरणमते व्यञ्जनावृत्तिः अवश्यं स्वीकरणीया एव एषा च शब्द तदर्थ पद पदैकदेश वर्णरचना चेष्टादिषु सर्वत्र तथैव अनुभवात् अपि च एतत् स्मर्तव्यं व्यञ्जना इति वृत्तिः शक्तिः पदे कदाचित् वाक्ये इत्युच्यते किन्तु पदे शक्तिः पदस्य अवयवानां वा शक्तिः भवति लक्षणावृत्तिः पदे एव स्वीक्रियते न तु अवयवेषु कदाचित् वाक्ये स्वीक्रियते किन्तु व्यञ्जनावृत्तिः इट् इस् मच् मोर् व्यापक मच् वैडर् देन् इट् शब्दः तदर्थः पदम् पदस्य एकदेशः नाम भागः अथवा अवयवः वर्णरचना कदाचित् वर्णानां रचनया कः वर्णः उपयुज्यते इत्यनेनापि कश्चित् व्यङ्ग्यार्थः भाति चेष्टादिषु एण्ड् बाडी लेङ्ग्वेज् इट् इस् वेरी इम्पार्टेण्ट् एस् अ कम्युनिकेशन् ओके सो आल् दट् कम्स् अण्डर् व्यञ्जन मया किञ्चित् उच्यते तत्र मम मुखभावं वीक्ष्य एव कश्चन अर्थः व्यङ्ग्यार्थः प्रतीयते कदाचित् मम ध्वनौ यः विशेषः तेन व्यङ्ग्यार्थः प्रतीयते कदाचित् विशिष्टं पदं किञ्चिदुपयुज्यते तेन व्यङ्ग्यार्थः प्रतीयते कदाचित् विशिष्टाः वर्णाः उपयुज्यन्ते यथा काव्येषु बहुधा उपयुज्यते यत्र वीररसस्य अथवा धैर्यस्य प्रतिपादनं कर्तव्यं तत्र कर्कषव्यञ्जनानि उपयुज्यन्ते यत्र तु शृङ्गारादयः भावाः व्यञ्जनीयाः तत्र तु मृदु वर्णानाम् उपयोगः क्रियते एवं वर्णरचनायामपि व्यञ्जना विद्यते एषा च शब्द तदर्थ पद पदैकदेश वर्णरचना चेष्टादिषु सर्वत्र तथैव अनुभवात् यतोहि व्यञ्जना अनुभवमात्रवेद्य सो व्यञ्जना केनाट् बि डिफैन्ड् इट् इस् संथिङ्ग् विच् इस् प्योर्ली सब्जेक्टिव् अत्र व्याख्याने पश्यन्तु लक्षणा पदनिष्ठा व्यञ्जना तु एकदेशनिष्ठा अपि इत्यर्थः लक्षणा तु पदे एव स्वीक्रियते यथा गङ्गा इति पदे तत्र प्रकृतिभागे वा प्रत्ययभागे वा लक्षणा न स्वीक्रियते व्यञ्जना तु कदाचित् एकदेशनिष्ठा अपि भवितुमर्हति तथैव अनुभवात् वक्त्रादिवैशिष्ट्यज्ञानं च व्यङ्ग्यविशेषबोधे सहकारी इति न सर्वत्र तदपेक्षा इति अन्यत्र विस्तरः एतदपि अस्ति वक्त्रादिवैशिष्ट्यज्ञानं कः वक्ता कः श्रोता इत्यादि ज्ञानं व्यङ्ग्यविशेषबोधे सहकारी सहकरोति इट् डस् असिस्ट् इन् इवोकिङ्ग् द व्यङ्ग्यार्थ न सर्वत्र तदपेक्षा किन्तु सर्वत्र वक्तृज्ञाने सत्येव व्यङ्ग्यार्थस्य भानं भवति इति नास्ति कदाचित् तद्भवति किन्तु वक्तुः ज्ञानं विना अपि वाक्येन अपि व्यङ्ग्यार्थः बोद्धुं शक्यः न सर्वत्र तदपेक्षा इति अन्यत्र विस्तरः अन्यत्र नाम मञ्जूषायां वैयाकरणसिद्धान्तमञ्जूषायां व्यञ्जनायाः विषये अधिकम् उच्यते नागेशभट्टेन, अत्र तु नोच्यते, सामान्यस्वरूपमेव उक्त्वा विरमति. वक्त्रादिवैशिष्ट्यज्ञानम् इत्यस्ति. तत्र वक्त्रादयश्च, वक्त्रादि आदि नाम किम् इत्युक्ते वक्तृ, बोद्धव्य, काकु, वाक्य, वाच्य, अन्यसन्निधि, देश, काल, प्रस्ताव, चेष्टादयः. पुनः तत्रापि आदपदमस्ति. एतत् सर्वमपि, सो देर् आर् सेवरल् फ्याक्टर्स् विच् इन्फ्लुयेन्स् द व्यङ्ग्यार्थ. यथा वक्तृ, हू स्पीक्स्, बोद्धव्यः, कः बोद्धव्यः, हू इस् द इण्टेण्डेड् यु नो लिसनर्, और् टु हूम् इस् द इन्फर्मेशन् इण्टेण्डेड् टु बि कन्वेड्. बोद्धव्यः कः, काकु, काकु इस् अ स्पेशल् इट् इस् यु नो इट्स् क्वेश्चन् विच् इस् इन्हरेण्ट् इन् अ स्टेट्मेण्ट्. वाक्य द सेण्टेन्स् इट् सेल्फ्. वाच्य द वाच्यार्थः कः. अन्यसन्निधिः, अन्यस्य पुरुषस्य, अन्येषां सन्निधिः. सो द स्पीकिङ्ग् आर् द वे आफ् एक्स्प्रेशन् मे बि डिफरेण्ट् इन् प्रेसेन्स् आफ् अदर् पीपल् आर् इन् प्रेसेन्स् आफ् स्पेसिफिक् पीपल् इफ् यु आर् रेफरिङ्ग् ओब्लिक्ली टु देम्. देशः कुत्र उच्यते, कालः, प्रस्तावः, चेष्टादयः. प्रस्तावः नाम प्रकरणम्. चेष्टादयः, चेष्टा इत्यनेन दैहिक शारीरिक मूमेण्ट्स्, द बाडि लेङ्ग्वेज्. एतत् सर्वमपि व्यङ्ग्यार्थस्य भाने सहकारी भवति. सो आल् आफ् देम् हेल्प् इन् इवोकिङ्ग् द व्यङ्ग्यार्थ विच् इस् वेरि स्पेसिफिक्. किन्तु एतद्विना अपि केवलाद् वाक्यादपि कदाचित् व्यङ्ग्यार्थस्य प्रतीतिः भवति. एषा च व्यञ्जना, यथा मया उक्तं, तत्र व्यञ्जनायाः उदाहरणं न दीयते नागेशभट्टेन. अत्र व्याख्याने उदाहरणद्वयमस्ति, ज्ञानार्थं पश्यामः. व्यञ्जना द्विविधा इत्युच्यते, शब्दशक्तिमूला तथा अर्थशक्तिमूला इति. अत्र अस्ति शब्दशक्तिमूला व्यञ्जना एवम् अर्थशक्तिमूला व्यञ्जना इति. यत्र विशिष्टस्य शब्दस्य प्रयोगेण व्यङ्ग्यार्थस्य प्रतीतिः भवति, सा शब्दशक्तिमूला व्यञ्जना इत्युच्यते. यथा दूरस्था भूधरा रम्याः इति प्रयोगः. दूरस्थाः भूधराः, भूधरः नाम भुवं धरति इति, पर्वतः. दूरस्थाः पर्वताः रम्याः इति सामान्योक्तिः. तत्र दूरस्थाः भूधराः रम्याः इति प्रयुज्यते केनचित्. दूरे पर्वताः दूरादेव अत्यन्तं रमणीयाः, न तु समीपेन इति सः श्लोकः अपि अस्ति. दूरतः पर्वतो रम्यः, बन्धुरम्यः परस्परम्, युद्धस्य च कथा रम्या, त्रीणि रम्याणि दूरतः इत्युच्यते. दूरतः पर्वतः रम्यः, दूराद् द्रष्टुं रम्यः भवति, किन्तु समीपं गच्छामः चेत् शिलाकण्टकादिकं ज्ञायते. बन्धुरम्यः परस्परं, बन्धुः परस्परं दूरतः एव रम्यः. दूरे सन्ति तर्हि सर्वं कुशलं वा इति कुशलवार्तया सर्वं यत्र सम्पद्यते तत्र सम्यक्. किन्तु बहु नैकट्यं यदा प्राप्यते तदा परस्परं दोषाः अवगम्यन्ते. युद्धस्य च कथा रम्या, युद्धस्य कथा श्रोतुम् अत्यन्तं रम्या भवति, रोमाञ्चकं भवति सर्वं. किन्तु वस्तुतः युद्धं भयानकमेव. त्रीणि रम्याणि दूरतः इति प्रसिद्धः श्लोकः. अत्रापि दूरस्थाः पर्वताः रम्याः इति, किन्तु पर्वतशब्दस्य स्थाने भूधरः इति विशिष्टः शब्दः उपयुक्तः. तेन किं ज्ञायते, पर्वतानामिव राज्ञामपि. भुवं धरति इत्यनेन यथा पर्वतः, तथा राज्ञः अपि प्रतीतिः भवति. अर्थात् राजभ्यः दूरे एव स्थातव्यं, बहु नैकट्यं मास्तु इति अर्थः व्यज्यते. अत्र वस्तुतः शक्तिः अर्थः पर्वताः, दूरस्थाः पर्वताः इत्येव, किन्तु विशिष्य भूधर इति शब्दस्य प्रयोगेण राज्ञाम् अपि प्रतीतिः भवति. अतः तत्र एण्ड् आल्सो सो दट् पर्टिक्युलर् भूधराः इति शब्देन यत्र राज्ञः भानं भवति व्यङ्ग्यार्थेन, तत्र देशकालादिकम् अपि उपकुर्यात्. सो इट् आल्सो डिपेण्ड्स् आन् वेर् इट् इस् टोल्ड् एण्ड् टु हूम् एण्ड् आल् एस् वि सो आल् दोस् फेक्टर्स् आर् देर्. But still, the Vyangyartha here is because of the specific use of the word Bhudhara. Yadi Durasthaha Parvataramyaha Ityuchyate Tatra Rajyaha Vyangyatvam Nasyat. Atah Etadrishi Shabdashakti Mula Vyanjana Ityuchyate. So the word here is through the Vyanjana here is through the use of a specific word. Okay. Anya Arthashakti Mula. Kimudaharanam Atrasti Kamudaharanam Gatcha Gatchasi Chet Kanta Panthana Santute Shivaha Mamapi Janma Tatraiva Bhuyad Yatra Gato Bhavan Kachit Kanta Patim Vadati Patihi Pravasartham Prasthitaha Gatcha Gatchasi Chet Kanta Kanta Gatchasi Chet Gatcha Te Panthana Shivaha Santu Margaha Sukhakaraha Bhavatu Mamapi Janma Tatraiva Bhuyat Yatra Gato Bhavan Yasmin Deshe Bhavan Gachati Tatraiva Mamapi Janma Bhavatu Iti Shlokaha Shlokasya Vachyarthaha Vachyarthasya Badhaha Kopinasti Vachyarthaha Sarvam Sangachate Kintu Atra Kim Vyajyate What is the Vyangyartha here? What is the implication here? Vyajyate kaha vyangyarthah
namaste I think she is telling that she is going to die
exactly so that too it is very clear the implication because tatraiva bhuyad yatra bhavan gatah bhavan yasmin yam desham gacchati tatraiva mama janma janmatu maranantarameva punarjanma bhavitum arhati kila atah bhavan gacchati ched aham riye ityarthah vyajyate natu sakshad uchyate she is not stating that she will die but saha vyangyarthah arthashakti moola vyanjana atra arthasya jnanena atra visheshyakena chit shabdena saha arthah pratiyate iti na purnasya vakyasya arthavagamanena vyangyarthasya pratiti asti etadrishi vyanjana arthashakti moola vyanjana ityuchyate evam shabdashakti moola arthashakti moola iti vyanjana dvividha alankara shastre tu anyathapi vibhagadikam bhavatyeva as I said the dhvani siddhanta it is I mean much well developed so it is based on vyanjana atra tu asmabhi etavata alam asmakam evam vyanjana iti kachid vrittih yattu tarkikaah lakshana yaiva gatartha vyanjana iti nasa svikarya ityahuh tarkikaah kim vadanti lakshanaya eva vyanjana gatartha arthat vyanjana vrittya ye arthaah sadhaniyaah te sarve lakshanaya eva sadhayitum shakyaah atah vyanjana vrittih na svikarya ityahuh vyanjana iti prithak vrittehe avashyakata nasti iti vadanti tan na tarkikanam vyanjana nirakaranam na yujyate kimartham lakshanayah mukhyartha badhapurvaka lakshyartha bodhakatvat lakshanaya kim bhavati mukhyarthasya badhe sati lakshyarthasya bodhaha bhavati yatha ganga pade pravaha rupasya arthasya badhe sati tiram ityarthasya pratitihi bhavati eva manchaha kroshanti ityukte mancha rupasya shakyarthasya kroshane kroshana asambhavat mukhyarthasya badhe sthati sati manchasthitaha purushaha iti lakshyarthasya bhanam bhavati sarvatra mukhyartha badhe satyeva lakshana badhaha nama tadeva anupapattihi tatparya anupapattireva lakshana bijam iti atra tu nasti mukhyarthasya badhaha durasthaha bhudharaha ramyaha ityukte durasthaha parvataha ramyaha iti satyameva tatra nasti badhaha evameva gatostamarkah iti prayukte suryah astangatah iti mukhyarthah upapanna eva satyameva that is true and that is relevant kintu natavata vyangyarthasya bhanam mukhyarthasya badhaha nasti इत्यतः लक्षणया गतार्थत्वं न भवति. लक्षणायाः मुख्यार्थबाधपूर्वक लक्ष्यार्थबोधकत्वात् मुख्यार्थसम्बद्धार्थस्यैव लक्षणया बोधकत्वात् अपि च मुख्यार्थेन सम्बद्धः यः अर्थः स एव लक्षणया बुध्यते. अस्माभिः दृष्टं पञ्चविधाः सम्बन्धाः भवन्ति. तात्स्थ्यात् तथैव ताद्धर्म्यात् तत्सामीप्यात् तथैव च तत्साहचर्यात् तादर्थ्यात् ज्ञेया वै लक्षणाबुधैः. एतादृशाः सम्बन्धाः सन्ति. मुख्यार्थसम्बद्धार्थस्यैव लक्षणाया बोधकत्वात् व्यञ्जनायाः अतथात्वेन, व्यञ्जना तु न तथा, मुख्यार्थस्य बाधः नापेक्ष्यते, तत्सम्बद्धः अर्थः एव बोधनीयः इत्यपि नास्ति. यथा गतोस्तमर्कः इति श्रुते कश्चित् चौरः स्वस्य चौरकर्मणः कालः सम्पन्नः इति यदि चिन्तयति तर्हि तत्र सूर्यास्तस्य तस्य च साक्षात् सम्बन्धः नास्ति. एवं कश्चित् सन्ध्यावन्दनं करणीयम् इति चिन्तयति चेत् साक्षात् सम्बन्धस्तु नास्ति मुख्यार्थस्य व्यङ्ग्यार्थस्य च. कदाचित् सम्बन्धः भवितुमर्हति किन्तु तन्न अपेक्षते व्यञ्जन. लक्षणायां तु सम्बन्धः भवेदेव इति नियमः अस्ति. व्यञ्जनायाः अतथात्वेन नाम मुख्यार्थबाधपूर्वक अर्थबोधकत्वं नास्ति, मुख्यार्थसम्बद्धस्यैव अर्थस्य बोधः इत्यपि नास्ति, अतः तदनन्तर्भावाच्च इति दिक्. अतः व्यञ्जना लक्षणायां नान्तर्भवति, सा पृथग्वृत्तित्वेन अङ्गीकार्या एव इति व्यञ्जना विचारः. सो दट् इस् आल् नागेश हेस् टु से अबौट् व्यञ्जना इन् द परमलघुमञ्जूषा. सो there is much more to vyanjana. Vyanjana is much wider and much more abstract than shakti and lakshana, but we only got a general idea of vyanjana. Any questions? अग्रिमं प्रकरणमस्ति परमलघुमञ्जूषायां स्फोटनिरूपणम्. आदौ एव स्फोटेनैव आरब्धः ग्रन्थः अष्टधा स्फोटः इति. स्फोटः त्रिधा पदवाक्य वर्णपदवाक्यस्फोटेन वर्णपदवाक्यभेदेन त्रिधा, पुनश्च तत्र जातिव्यक्तिभेदेन षोढा, अखण्डपदस्फोटः अखण्डवाक्यस्फोटः इति अष्टौ स्फोटाः इत्युक्तम्. ततश्च शब्दप्रामाण्यं साधयित्वा शब्दस्य अर्थस्य च विद्यमानाः त्रयः सम्बन्धाः नाम वृत्तयः परीक्षिताः. शक्तिः लक्षणा व्यञ्जना चेति तिस्रः वृत्तयः. एते वृत्तयः एतासां वृत्तीनाम् आश्रयः भवति शब्दः, नाम शब्दस्य अर्थस्य च सम्बन्धः वृत्तिः. अतः शब्दाश्रयाः इमाः वृत्तयः. तर्हि सः शब्दः कः? सो वाट् इस् दट् शब्द? ननु कोऽयं वृत्त्याश्रयशब्दः? वृत्त्याश्रयः शब्दः कः? सो वाट् एक्साक्ट्लि डु वि मीन् बै द शब्द? शब्दस्वरूपं किम् इति इदानीं विचार्यते. वर्णाः प्रत्येकम् इति चेत् न, प्रत्येकं वर्णः अस्माभिः उच्चार्यते, सः प्रत्येकोऽपि वर्णः एव शब्दः इति चेत् न सम्भवति. अर्थात् वर्णानां वाचकत्वं न, वर्णस्य पृथग् वर्णस्य शक्तिः लक्षणा व्यञ्जना वा न सम्भवति. किमर्थम्? द्वितीयादिवर्णोच्चारणवैयर्थ्यापत्तेः. यदि वर्णेनैव कश्चिदर्थः बुध्यते तर्हि मया रामः इति वक्तव्यं. तत्र रेफस्य उच्चारणेनैव यदि अर्थबोधः भवति तर्हि द्वितीयादिवर्णोच्चारणवैयर्थ्यापत्तेः. द्वितीयवर्णादारभ्य इतरेषां वर्णानां बोधः व्यर्थः, वर्णानाम् उच्चारणं व्यर्थं द्वितीयादिवर्णोच्चारणवैयर्थ्यापत्तेः. यदि प्रथम वर्णादेव अर्थबोधः भवति तर्हि द्वितीयादि वर्णाः किमर्थम् उच्चारणीयाः. अतः वर्णः प्रत्येकम् अर्थं बोधयति इति न, केवलस्य रेफस्य उच्चारणेन न कश्चित् अर्थः बुध्यते. अस्तु, तर्हि वर्णसङ्घातः इति वदामः. वर्णसङ्घातः नाम समूहः. वर्णसमूहः शब्दः इति चेत् तदपि न, नापि वर्णसङ्घातः. किमर्थम्? उच्चरितप्रध्वंसित्वेन यौगपद्य असम्भवात्. समूहः कदा भवति? बहवः अवयवाः एकस्मिन् देशे एकस्मिन् काले सन्ति चेत् सः समूहः इत्युच्यते. यथा एकं स्थलम् एतं प्रकोष्ठं प्रति एकैकशः पञ्चजनाः, प्रथमः आगच्छति गच्छति, द्वितीयः आगच्छति गच्छति, तृतीयः आगच्छति गच्छति, एवं चेत् अत्र जनसमूहः इति वक्तुं शक्यते वा? न शक्यते. अथवा अहम् अत्र अस्मि, अन्यः पार्श्वगृहे अस्ति, अपरः कश्चित् ततोप्यन्यगृहे अस्ति, तदा वा जनसमूहः इति वक्तुं शक्यते वा? न शक्यते. कदा समूहः इत्युच्यते? एकस्मिन् देशे एकस्मिन् काले बहूनाम् अवयवानां सत्त्वे समूहः इत्युच्यते. किन्तु वर्णाः वर्णानां युगपत् स्थानं नास्ति, नापि वर्णसङ्घातः. उच्चरितप्रध्वंसित्वेन वर्णः यदा उच्चार्यते तदा अग्रिमक्षणे एव ध्वंसः अपि भवति. वर्णाः न तिष्ठन्ति. Say they are not, as soon as you utter them, they are lost. You, before you utter the second letter, the first letter is gone. Uccharita pradhvamsi, uccharana samanantaram eva pradhvamsaha bhavati varnanam. Tathasati, yaugapadya asambhavat, yugapadu nama ekasmin kale bahunam varnanam sattvam nasti, na sambhavati. Yada dvitiya varnaha uccharyate, tada prathama varnaha nashtaha. Tritiyasya uccharana kale, प्रथमः द्वितीयः इति उभावपि नष्टौ. अतः उच्चरितप्रध्वंसित्वेन यौगपद्य असम्भवात्. अतः वर्णसङ्घातः शब्दः, वर्णसङ्घातः अर्थस्य वाचकः इत्यपि वक्तुं न शक्यते. वर्णानां सङ्घातः एव न सम्भवति. सर्वे वर्णाः पृथक् पृथक् उत्पद्यन्ते नश्यन्ति, उत्पद्यन्ते नश्यन्ति इत्येव क्रमः. अभिव्यक्तेः उत्पत्तेः वा क्षणस्थायित्वात्, तत्रापि द्वेधा वदति. वर्णाः नित्याः इति केषाञ्चन मतम्. यथा वैयाकरणमते वर्णाः नित्याः नाम वर्णस्य उत्पत्तिः इति किमपि नास्ति. वर्णाः सर्वदा सन्ति, तेषाम् अभिव्यक्तिः उच्चारणद्वारा, दे आर् जस्ट् एक्स्प्रेस्ड् सो दे आर् आल्वेस् प्रेसेण्ट्, तेषाम् अभिव्यक्तिः भवति इति केषाञ्चित् मतम्. अन्येषां दर्शनानाम् अनुसारं वर्णाः अनित्याः नाम उत्पद्यन्ते विनश्यन्ति इत्यपि अस्ति. यथा वा भवतु, अभिव्यक्तेः उत्पत्तेर्वा, अभिव्यक्तिः इति वा स्वीक्रियताम्, उत्पत्तिः इति वा स्वीक्रियताम्, क्षणस्थायित्वात्. क्षणं नाम अत्यल्पः कालः. इट् इस् नाट् इवन् अ सेकेण्ड्, इट् इस् सेवरल् सम् मच् स्मालर् दिस् देन् अ सेकेण्ड्. अभिव्यक्तेः उत्पत्तेर्वा क्षणस्थायित्वात्, क्षणात्मककालस्य प्रत्यक्ष अयोग्यत्वेन. क्षणात्मकः कालः अत्यन्तं लघुः कालः, तादृशः कालः प्रत्यक्षः न भवति. सो दट् इस् अ क्षण इस् अ काल विच् इस् नाट् पर्सेप्टिबल्. इट्स् अ वेरि 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 शार्ट् ड्यूरेशन् आफ् टैम् विच् केनाट् बि पर्सीव्ड् एट् आल्. अभिव्यक्तेः उत्पत्तेर्वा क्षणस्थायित्वात् क्षणात्मककालस्य प्रत्यक्ष अयोग्यत्वेन तदवच्छिन्नस्य वर्णस्यापि अप्रत्यक्षत्वात्. अतः क्षणकालेन अवच्छिन्नः यो वर्णः सोऽप्येवं प्रत्यक्षः भवितुं नार्हति. अतः वर्णसङ्घातः इत्यपि वक्तुं न शक्यते. उच्चारण अधिकरण कालोत्तरकालवृत्ति ध्वंसप्रतियोगित्वम् उच्चरितप्रध्वंसित्वम्. उच्चरितप्रध्वंसित्वं नाम किम्? उच्चारण अधिकरणकालः, उच्चारणं यस्मिन् काले भवति सः कालः उच्चारणाधिकरणकालः. तदुत्तरकालवृत्ति, तदुत्तरकाले यस्मिन् काले उच्चार्यते तदुत्तरकाले ध्वंसः अस्ति. तादृशस्य ध्वंसस्य प्रतियोगित्वम् नाम अस्मिन् क्षणे यदि उत्पद्यते वर्णः अथवा अभिव्यज्यते तदुत्तरक्षणे तु ध्वंसः एव क्षणद्वयमपि न तिष्ठति इत्यर्थः. एकस्मिन् क्षणे उत्पत्तिः अभिव्यक्तिर्वा भवति तदुत्तरकाले तु ध्वंस एव. उच्चारण अधिकरणकालः यः तदुत्तरकालवृत्ति वृत्तिः यः ध्वंसः नाम नाशः तत् प्रतियोगित्वम् नाशस्य प्रतियोगी तु स एव. नाशः नाम अभावः, अभावस्य प्रतियोगी सः वर्णः. तादृशं प्रतियोगित्वम् उच्चरित प्रध्वंसित्वम्. अतः क्षणं एकस्मिन् क्षणे उत्पद्यते अस्मिन् अपरस्मिन् क्षणे तु विनाशे एव. तथा सति तादृशस्य तादृशानां वर्णानां यौगपद्यं न सम्भवति, प्रत्यक्षत्वमपि न सम्भवति. तथा सति वर्णसङ्घातः शब्दः अथवा वाचकः इति वक्तुं न शक्यते. इकोयणसि इत्यादौ किञ्च एवम् अङ्गीकृते अर्थात् ये वर्णाः उच्चरिताः प्रध्वंसिताः प्रध्वस्ताः तेषामेव वाचकत्वम् इत्यादि यदि अङ्गीक्रियते इकोयणचि इत्यादौ तस्मिन् इति परिभाषोपस्कृतवाक्यार्थे अयं पूर्वः अयं परः इति नष्टस्य प्रत्यक्षविषय इदं शब्देन पौर्वापर्यव्यवहार अयोगात् इकोयणचि इति सूत्रमस्ति. इकः अचिपरे यण् इति तत्र अचि इति सप्तमी विभक्तिः श्रूयते. तस्याः कोऽर्थः इति चेत् तस्मिन् इति निर्दिष्टे पूर्वस्य अज् अव्यवहित पूर्वस्य इकः इत्यर्थः प्रतीयते. तत्र इकोयणचि इत्यादौ तस्मिन् इति परिभाषोपस्कृतवाक्यार्थे तस्मिन् इति निर्दिष्टे पूर्वस्य इति परिभाषया सह कृतः वाक्यार्थः नाम अजव्यवहित पूर्ववर्तिनः इकः यणादेशः भवति इति योऽर्थः. तत्र अयं पूर्वः अयं परः नाम सुधी उपास्यः इति चेत् तत्र उकारः पारः ईकारः पूर्वः इत्येवम् अयं परः इति नष्टस्य प्रत्यक्षविषय इदं शब्देन. वस्तुतः यदा उच्यते सुधी उपास्यः इत्युक्ते ईकारोऽपि नष्टः उकारोऽपि नष्ट एव. तथा सति नष्टस्य यः नष्टः वर्णः तस्य प्रत्यक्षविषय इदं शब्देन अयं पूर्वः अयं परः इति इदं शब्देन निर्देशः क्रियते. इदमः प्रत्यक्षनिर्देशे एव प्रयोगः इति नियमः अस्ति. इदमः प्रत्यक्षनिर्देशे यत्र प्रत्यक्षस्य प्रत्यक्षं यः यद्वस्तु अस्ति तस्य निर्देशे एव इदं शब्दः उपयुज्यते. वर्णाः तु नष्टाः तथा सति अयं पूर्वः अयं परः इति निर्देशः न युज्यते. प्रत्यक्षविषयक इदं शब्देन पौर्वापर्यव्यवहार अयोगाच्च. एवं यदि वर्णाः प्रत्येकं शब्दः नाम वाचकाः इति स्वीकृते दोषः द्वितीयादि वर्णोच्चारणस्य वैयर्थ्यं. प्रथमवर्णादेव यदि बोधः भवति तर्हि द्वितीयादि वर्णाः नोच्चारणीयाः इति. वर्णसङ्घातः शब्दः अथवा वर्णसङ्घातस्य वाचकत्वं यदि अङ्गीक्रियते तत्रापि क्लेशः, यतोहि वर्णानां सङ्घातः एव न सम्भवति. किञ्च ते वर्णाः अप्रत्यक्षाः, अपि च एवं स्वीकृते अयं पूर्वः अयं परः इत्यादि पौर्वापर्यव्यवहारः अपि न युज्यते. अतः एतदपि स्वीकर्तुं न शक्यते इति वदति. अग्रे इतोपि स्फोटविचारः अस्ति, अग्रिमवर्गे पश्यामः. We'll stop here today because I'm stopping a bit early because I need to go elsewhere. Agrimavarge sphota vicharam anuvartayamaha. Any questions so far? अद्य दृष्टस्य संक्षेपः व्यञ्जनावृत्तेः निरूपणम् अस्माभिः अधीतम्. वक्त्रादिवैशिष्ट्यज्ञानप्रतिभादि उद्बुद्धः संस्कारविशेषः व्यञ्जना इत्येव व्यञ्जनायाः वस्तुतः स्वरूपम्. व्यञ्जना नाम संस्कारविशेषः. प्रतिभादि उद्बुद्धः प्रतिभावशात् वक्त्रादिवैशिष्ट्यज्ञानेन च सः संस्कारः उद्बुद्धः भवति इत्यर्थः. तत्र मुख्यार्थबाध निरपेक्ष बोधजनकत्वम् अस्ति व्यञ्जनायाम्। मुख्यार्थबाधं विना अपि अन्यस्य अर्थस्य भानं यत्र भवति, मुख्यार्थेन सह अन्यस्य कस्यचित् अर्थस्य भानं भवति, सा व्यञ्जनावृत्तिः। मुख्यार्थ सम्बन्ध असम्बन्ध साधारणम्, सः अन्यः अर्थः यः भासते सः कदाचित् मुख्यार्थेन सम्बद्धः भवितुमर्हति, कदाचित् असम्बद्धः। प्रसिद्ध अप्रसिद्धार्थविषयकम्, किञ्च यः अर्थः भासते सः प्रसिद्धः नाम सर्ववेद्यः अपि भवितुमर्हति, कदाचित्तु न भवितुमर्हति। केवलं यः शृणोति अथवा यः वदति तयोरेव तस्य अर्थस्य भानं स्यात् विशिष्टसङ्केतादिवशेन। यथा तत्र उदाहरणानि दीयन्ते, कश्चित् सङ्केतः यथा प्रेमिणोः परस्परं यदि सङ्केतः अस्ति तर्हि सः व्यङ्ग्यार्थः, किञ्चित् वाक्यं प्रयुज्यते तस्य कः व्यङ्ग्यार्थः इति ताभ्यामेव ज्ञायते, अन्यैः न ज्ञायते। इट्स् लैक् यु नो टाकिङ्ग् इन् कोड्स् आर् टाकिङ्ग् इन् सीक्रेट् वर्ड्स्, यु डिसैड् बिफोर् हेण्ड् वाट् मीन्स् वाट् आर् वाट् इम्प्लैस् वाट्, ओके, सो अदर्स् विल् नाट् बि एबल् टु नो इट्। अतः प्रसिद्ध अप्रसिद्धार्थविषयकं भवति व्यञ्जनावृत्तिः। अत एव व्याकरणे बहुत्र व्यञ्जनावृत्तेः अङ्गीकारः अस्ति। द्योतकम्, निपातानां द्योतकत्वं, द्योतकत्वं नाम स्वसमभिव्याहृतपदनिष्ठशक्तिव्यञ्जकत्वं, शक्तिं व्यञ्जयन्ति निपाताः। शक्तिः कुत्र अस्ति? वस्तुतः स्वसमभिव्याहृतपदे अस्ति, तस्य बोधे सहकारिणः भवन्ति निपाताः। एवं स्फोटस्यापि विषये व्यञ्जनावृत्तिः अङ्गीक्रियते। एषा व्यञ्जना कुत्र इति चेत् सर्वत्र भवति, शब्दे, अर्थे, पदे, पदैकदेशे, वर्णरचनायां, चेष्टादिषु सर्वत्र व्यञ्जना भवितुम् अर्हति। वक्त्रादिवैशिष्ट्यज्ञानं व्यङ्ग्यविशेषबोधे सहकारि, अर्थात् वक्ता, श्रोता, देशः, कालः, प्रसङ्गः इत्यादीनां ज्ञानेन विशिष्टस्य व्यङ्ग्यार्थः व्यङ्ग्यार्थस्य बोधः सहक्रियते। किन्तु सर्वत्र एतेषां ज्ञाने सत्येव व्यङ्ग्यार्थस्य बोधः इत्यपि नास्ति। कदाचित् एतज्ज्ञानं विनापि व्यङ्ग्यार्थः बुध्यते, कदाचित्तु वक्तृविशेषे ज्ञाते एव व्यङ्ग्यार्थस्य बोधः भवति इत्यस्ति। तार्किकमतेन लक्षणया व्यञ्जनायाः गतार्थत्वस्य निराकरणम्। तार्किकानां मते लक्षणया व्यञ्जना गतार्था, अर्थात् लक्षणावृत्त्यैव एतादृशाः अर्थाः सिद्ध्यन्ति, न तु व्यञ्जना नाम्नी पृथक् वृत्तिः अपेक्ष्यते इति तार्किकाः, तत्तु न अङ्गीक्रियते। कारणं तु पूर्वमपि उक्तं, वैलक्षण्यं लक्षणायाः व्यञ्जनायाश्च। लक्षणायां मुख्यार्थबाधः, मुख्यार्थेन सम्बन्धश्च निश्चयेन अपेक्ष्यते, व्यञ्जनायां तु उभयोः अपेक्षा नास्ति। मुख्यार्थस्य बाधोऽपि न भवति, तेन सम्बन्धस्यैव अर्थस्य भानम् इत्यपि नास्ति। अतः व्यञ्जना लक्षणया न गतार्था, पृथग्वृत्तित्वेन अङ्गीकरणीया एव इति वैयाकरणानां सिद्धान्तः। तदग्रे स्फोटप्रकरणस्य अध्ययनमपि आरब्धम्। तत्र वृत्त्याश्रयः शब्दः नाम वाचकः अर्थवाचकशब्दः कः इत्यत्र, एकः वर्णः, वर्णाः प्रत्येकं वाचकाः इति चेत् द्वितीयादिवर्णानाम् उच्चारणस्य वैयर्थ्यं भवति। यदि वर्णसङ्घातः वाचकः इत्यङ्गीक्रियते तर्हि सङ्घातस्यैव असम्भवः वर्णानाम् उच्चरितप्रध्वंसित्वात् योगपद्यं न सम्भवति, प्रत्यक्षत्वमपि न सम्भवति, अयं पूर्वः, अयं परः इत्यादि व्यवहारोऽपि न युज्यते। अतः वर्णसङ्घातः वाचकः इत्यपि न सम्भवति इति नागेशः। अग्रे स्फोटस्य विषये पश्यामः। शिवन्नत्वा हि नागेशेनानिन्द्या परमालघुः वैयाकरणसिद्धान्तमञ्जूषैषा विरच्यते।